इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य ग्रेटर नोएडा इत्यत्र चतुर्विंशत्युत्तर द्विसहस्रतम वर्षस्य सेमिकॉन इण्डिया इत्येतस्य कार्यक्रमस्य शुभारम्भं करिष्यति। कार्यक्रमस्यास्य विषयो वर्तते शेपिंग द सेमीकंडक्टर फ्यूचर इति अर्धचालक भविष्याय आकृति प्रदानमिति। एतस्मिन् कार्यक्रमे भारतस्य अर्धचालक रणनीतिं प्रदर्शयिष्यति, या हि भारतं वैश्विक केन्द्रं परिकल्पयति। ह्यः निजावासे प्रधानमन्त्री अवोचत् यत् भारतस्य पार्श्वे वैविध्ययुतायाः अर्धचालकापूर्ति श्रृंखलायाः क्षमता विद्यमानास्ति, अपि च लोकतन्त्र प्रौद्योगिक इत्युभाभ्यां मानवकल्याणं सुनिश्चितम् अपि अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना वैश्विक समस्यानां स्थानीय समाधानस्य विषये अवधानं दत्तम्। ह्यः नवदिल्ल्यां नवनिर्मितस्य अनुसन्धान राष्ट्रियानुसन्धान प्रतिष्ठिका इत्येतस्य प्रथमस्य शासिमण्डल सभायाः अध्यक्षता प्रधानमन्त्रिणा कृता। सभायां प्रधानमन्त्रिणा अनुसन्धान व्यवस्थायाः मार्गस्य बाधकान् चिन्वन्तु तथा च एतेषां समस्यानां निवारणार्थम् उपायान् कर्तुम् आदिष्टम्। असौ अवदत् यत् विद्यमानानां समस्यानां नूतनानि समाधानानि अन्वेष्टुं संशोधनं केन्द्रितं भवेदिति। संस्थानाम् उन्नयनस्य मानकीकरणस्य च आह्वानं प्रधानमन्त्रिणा सूचितम्। विदेशमन्त्री सुब्रह्मण्यम् जयशंकरः जर्मनीदेशीयेन स्वसमकक्षेण एनालेना बियेबॉक इत्यनेन सह बर्लिननगरे संवादं कृतवान्। एतौ नेतारौ व्यापार निवेश सतत विकासाय ध्यानं प्रदत्तवन्तौ। एकस्मिन् अन्ये च कार्यक्रमे विदेशमन्त्री डॉ एस जयशंकरः भारत जर्मनी देशयोर्मध्ये सम्भाव्यमानाय रक्षासहयोगाय आह्वानं कृतवान्, अपि च यूरोपीय राष्ट्रतः निर्यात नियन्त्रणं सरलीकर्तुमपि आग्रहम् अकरोत्। बर्लिननगरे जर्मन विदेश कार्यालयस्य वार्षिक राजदूत सम्मेलनं सम्बोधयता विदेशमन्त्रिणा प्रोदीरितं यत् रक्षासहायतायै अधिकं विचारं करणीयं, यतोहि भारतीयाः अपि एतस्मिन् क्षेत्रे विस्तारं वाञ्छन्ति। नागरिकोड्डयनमिति विषयम् अवलम्ब्य द्वितीयम् एशिया प्रशान्त मन्त्रिस्तरीय सम्मेलनम् अद्य नवदिल्ल्याः भारतमण्डपम् इत्यत्र समारप्स्यते। अस्य द्विदिवसीयस्य कार्यक्रमस्यायोजनम् अन्ताराष्ट्रिय नागरिकोड्डयन संघटन नागरिकोड्डयन मन्त्रालययोः संयुक्त तत्वावधाने क्रियते। ध्यातव्यमस्ति यत् भारतं विश्वे द्रुतगत्या संवर्धमाना विमानविपणिः वर्तमानसमये च दैशिकक्षेत्रे तृतीयस्थाने दृश्यते इति। भारत संयुक्तारबामीरात देशौ अबूधाबी राजधान्याम् युवराज्ञः शेख खालिद बिन मोहम्मद बिन जायद अल नाहियान इत्यस्य मुम्बय्याः यात्रावसरे व्यापार सम्बद्धे परिणामद्वये सहमतौ जातौ, येषु भारत संयुक्तारबामीरातयोः आभासीय व्यापार वीथी सम्मिलितास्ति, या हि भारत मध्य पूर्वीय यूरोपस्य आर्थिक वीथौ भारत संयुक्तारबामीरात देशयोर्मध्ये जातस्याः सहभागितायाः अन्तर्गतं विद्यते। द्वितीयं च आकराजापूर्ति श्रृंखलायां नैकैः उद्यमैः सह सहभागिता अपि अस्ति। हरियाणा राज्ये आगामिने विधानसभा निर्वाचनाय 90 आसनेभ्यः प्रायः 35%-अधिकैकशतं यावत् प्रत्याशिभिः नामांकनपत्रं प्रपूरितम्। एषा नामांकन प्रक्रिया मासस्यास्य द्वादश दिनांक पर्यन्तं प्रचलिष्यति। हॉकी इत्येतस्यां प्रतिस्पर्धायां पुरुषाणां एशियन चैम्पियनशिप ट्रॉफी इति प्रतियोगितायां भारतदेशः मलेशियादेशेन सह योत्स्यते इति वार्ताः।